एष रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रभाषकः ध्रुव भट्टराई प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा मन्त्री परिषद विस्तारै समाविष्टुम् असक्येभ्य दलस्य योग्येभ्य सक्षमेभ्यश्च जनेभ्य उचितम् दायित्वम् प्रदास्यति इति प्रतिबद्धताम् व्यनक्ति स्कूल अफ डेमोक्रेसी संस्थाय अमेरिका देशीय शाखाया प्रकाशितम् विश्वेश्वर प्रसाद कोइराला शताब्दी विमर्श इति नामकम् पुस्तकम् ह्य विमोचन प्रधानमन्त्री देउवा मन्त्री परिषद विस्तारे योग्य मित्राणि नाम समाविष्टानीति तत्र आत्मना दुःखम् अनुभूतम् अस्तित्यतः स्वस्य बाध्यावस्थाम् ज्ञातुम् अनुरुणत कार्यक्रमे सांसद मीन विश्वकर्मा बीपी कोइराला प्रजातन्त्रम् नेपाली कांग्रेस दलम् च परस्परम् परिपूरकाणि सन्ति इति चर्चाने अवोचत जनतायम् प्रजातन्त्रस्य अर्थस्य महत्वस्य अभ्यासस्य च विषय बोधनस्य अद्यतनी आवश्यकता वर्तते। राष्ट्रिय सभाया अन्तर्गतस्य स्थिर विकास समिति सभापति तारादेवी भट्ट अगदत् संयुक्त राष्ट्र संघेन सम्प्रत्यवग्रे वर्धापितम् स्थिर विकासस्य लक्ष्यम् बीपी कोइराला विधेन स्वस्य समय परिकल्पितेन सिद्धान्तेन विचारेण च समम् वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः कथयति समय प्राप्ति अनन्तरमेव निर्वाचनम् भविष्यति। उद्योग संघस्य चितवन शाखाया त्रिंशीम् साधारण सभाम् षोडशम् अधिवेशनम् च ह्यः उद्घाटन अध्यक्ष प्रचण्ड अकथयत् सर्वकारेण पूर्णता प्राप्तास्ति अयमेव सर्वकार पूर्णावधिम् यावत् कार्यम् च करिष्यति। गतदिने एव चितवने पत्रकारै सह अध्यक्ष प्रचण्ड अभासत मन्त्रीमण्डलस्य विस्तारे न्यायालयाय आवंटनम् विहितमिति कथनम् असत्यमस्ति। अध्यक्ष प्रचण्ड मन्त्रीमण्डल विस्तारस्य विषये कोलाहल सर्जनम् आवश्यकम् नास्तीति समस्पष्टयत्। नेकपा एकीकृत समाजवादीन अध्यक्ष माधव कुमार नेपालः भ्रष्टाचारस्य अनुसन्धानाय सर्वकारम् अनुरोधे एकीकृत समाजवादी दलस्य काभ्रे पलाञ्चोक जनपद दल कार्यालयस्य उद्घाटन कार्यक्रमे ह्य अध्यक्ष नेपालः अवोचत् सर्वकारे स्थितिभ्यो जनेभ्यो अनुचित मार्गे चलितुम् सौविध्यम् नास्ति एवं यः कोऽपि सन्नपि भ्रष्टाचारी दण्डनस्य परिधौ आनेतव्यः। पूर्ववर्ती सर्वकारस्य समये घटितानाम् यति प्रकरणम् कोरोना महामार्य समये विहितम् औषधक्रयणम् चेति बहूनाम् न्यायिक विषयाणाम् गोपनाय प्रतीतमिति भासमाना अध्यक्ष नेपालः राज्यस्य सम्पत्तीनाम् दुरुपयोगिनो जनान् अनुसन्धातुम् बलम् अददात्। असौ दलस्य पक्षतः मन्त्रालयानाम् दायित्ववाहक मन्त्रिणश्च शोभन कार्याणि दर्शयितुम् निर्दिश्य अनुचितेषु कार्येषु विहितेषु सत्सु तत्र न संस्थाप्यन्तीत्युक्तः सन्तीति अवोचत्। नेपाले ह्य आराष्ट्रम् अतिरिक्तेषु षष्ट्यधिक सप्तशतै जनेषु कोरोना संक्रमण पुष्टीभूतम् वर्तते। ह्य नेपाले अतिरिक्ता नवनवत्यधिकाष्टशतम् जना कोरोना संक्रमणात् मुक्ता सन्ति। यस्तनावधि आराष्ट्रम् पञ्चदश सहस्राणि चत्वारिंशदधिक शतत्रयञ्च कोरोना विषाणु सक्रिय संक्रान्त जना सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। ह्य आराष्ट्रम् अतिरिक्ता एकादश जना मृता इति मन्त्रालयसौ सूचयति। रक्षा मन्त्री डाक्टर मिनेन्द्र प्रसाद रिजाल कथयति राष्ट्रिय सुरक्षा सामूहिक सहमति विषय अस्ति। विराटनगर विमानस्थले संचारकर्मी सह यो मन्त्री डाक्टर रिजाल नेपाली सेनाय सम्मान मर्यादा च विश्व समक्षम् उच्चस्तरे स्त इति चर्चयन् नेपाली सेनाय गौरवम् वर्धयितुम् सर्वकार कदापि परामुखो न भवतीति दृढताम् व्यक्तवान्। अर्थमन्त्री जनार्दन शर्मा कथयति शिक्षा क्षेत्रे केवलं परिणामदायिनम् उत्पादनमूलकानां च योजना कार्यक्रमाणां कृते निवेशः विधीयते। शिक्षायै राष्ट्रिय अभियान नेपालस्य द्वादशीं वार्षिक साधारण सभां ह्य उद्घाटन अर्थमन्त्री शर्मा सम्पर्कस्य अनुमानस्य च आधारेण कस्यापि पञ्जिकाया निर्माणेन आत्मना वित्तं न दीयते इति समस्पष्टयत्। स्थानांकनं विना विद्यालय महाविद्यालयेभ्यः स्वीकृति प्रदीयते तत्र गुणस्तरीय शिक्षा न भवतीति हेतु निवेशनं व्यर्थं जायमानं वर्ततीति संकेतयन् अर्थमन्त्री शर्मा संविधानस्य व्यवस्थाया अनुसारेण सार्वजनिक शिक्षां निःशुल्कं कारयितुं शिक्षां समानतां संस्थापयितुं च आत्मनः प्रतिबद्धतास्तीति अभासत। ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषाल भाषते विकास निर्माणाय कलाय संरक्षणाय च न केवलं निर्मातृभि अपितु उपभोक्तृभिश्च दायित्ववाहकैर्भाव्यम्। सामुदायिक विकास कोष समिति सचिवालयेन गतदिने ललितपुरे आयोजिते कार्यक्रमे मन्त्री भूषाल आत्मनाम संस्कृति पर्व विकास निर्माण कार्यसु उपभोक्तृ स्तरादपि निरन्तरं सावधानताम् अवलम्बितुं बलं प्रादात्। नगरीय विकास मन्त्री रामकुमारी झाँक्री वर्तमान सर्वकार एव सर्वेषां नायकानां सर्वकार स्थिति प्रत्यनुभावनस्य प्रतिबद्धतां व्यनक्ति नेकपा एकीकृत समाजवादीन तनहुं जनपद शाखा यह दमोल स्थानीय आयोजित कार्यक्रममा मन्त्री झाँक्री अभासत समय स्वल्पस्थिति हेतु जनापेक्षा अनुसरण न्यायोचित विकास पक्ष कार्यम विधीयते। कार्यक्रमे श्रम वृत्ति सामाजिक सुरक्षा मन्त्री कृष्ण कुमार श्रेष्ठ वैदेशिक वृत्त्युपार्जन क्षेत्रे स्थिता विकृति समापयितुम् आत्मना प्रवर्त्यते इति अवोचत। असो अगदत समाजवादोन्मुख राज्य प्रणाली स्थापनाय नीति विधि मापदण्ड निर्माय श्रमिकै श्रमामूल्यस्य अप्रापणस्य अवस्थाय अन्तो विधास्यते। स्वास्थ्य जनसंख्या मन्त्री विरोध खतिवडा कथयति वर्तमान पञ्चदलीय गठबन्धनम् निर्वाचन यावत् संस्थाप्यते। नेकपा एकीकृत समाजवादीन कास्की जनपद शाखा यह पोखराइम आयोजित शुभकामनाय आदान प्रदान कार्यक्रम मन्त्री खतिवडा अवोचत संविधानस्य रक्षणस्य शपथे वर्तमान गठबन्धनम् आगामी निर्वाचन यावत् संस्थाप्यते। एकीकृत समाजवादीन उपमहासचिवश्च मन्त्री खतिवडा नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओलीले राजनीतिक विचलनम् आगतम् व्यक्तिवादी प्रवृत्तिश्च सृष्टिति कारणात् आत्मविद्रोह विधातव्य अभूत् इति अवोचत। भारत भ्रमणे विद्यमानस्य नेपाली कांग्रेस दलस्य प्रतिनिधिमण्डलस्य भारतस्य उत्तर प्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन सह मेलवार्ता सम्भूता अस्ति। उत्तर प्रदेशवर्तिनी मुख्यमन्त्री कार्यालये ह्यः सम्पन्ने मेलने नेपाल भारतयो सम्बन्धस्य विविध विषयेषु विमृष्टमिति प्रतिनिधिमण्डलस्य नेतृत्वं विदधानो नेपाली कांग्रेस दलस्य सह महामन्त्री डाक्टर प्रकाश रणमहत अज्ञापयत। मेलनस्य क्रमे मुख्यमन्त्री आदित्यनाथ अकथयत नेपालेन सह सम्बद्धा विविध विषय भारतेन सदैव प्राथमिकतायां संस्थापिता सन्ति। नेपाली कांग्रेस दलस्य नेता प्रकाशमान सिंह कथयति दल संगठनम् सबलीकर्तुम् सर्वेषाम् कार्यकर्तृणाम् महत्वपूर्णम् दायित्वम् भवति। काष्ठमण्डपस्य टोखास्थाने ह्यः आयोजित कार्यक्रमे नेता सिंह अवदत् प्रजातन्त्रस्य सबलीकरणाय अपि कांग्रेस दलेन सबलेन भाव्यम्। नेपाली कांग्रेस दलस्य महामन्त्री डाक्टर शशांक कोइराला कथयति जलविद्युत पर्यटनस्य कृषिश्च माध्यमेन राष्ट्रस्य आर्थिक विकासो विधातव्यः। नेपाली कांग्रेस दलस्य धादिङ काष्ठमण्डप सम्पर्क समित्या विजयादशमी अवसरे ह्यः आयोजित शुभकामना दान प्रदान चाय पान कार्यक्रमे महामन्त्री डाक्टर कोइराला एवं अकथयत।